गोपी गोकुलमालपत्सुमुरली सप्तस्वरै हर्षयन् गोपी मंडल मध्यगस्मितमुखो माधुर्य वीक्षंकरः गोपालश्चिकुरोल्लसच्छिकी शिखण्डाखण्डदीप्तिश्चिरम् गोपालाश्रम विश्रमी विजयताम् विश्वैकमुग्धाकृतिः काशीकुञ्जवती परञ्च भवतः भूपद्विशो भूरियम् यत्रास्ते खलु शङ्करस्तव पदां भोजैकभक्तस्वयम् त्वत्पादाम्बुजसम्भवापुलिनवत् येषा हि सा जाह्नवी वृन्दायामिव राधिकेश रमता मत्रैव गोपीयुतः शुद्धं बुद्धमबुद्धिगम्यमचलं यद्वस्तु वेदान्तिनां तत्त्वं कृष्णकिशोरविग्रहविभो तत्त्वं न किञ्चित् परम् राधावल्लभरामराष्ट्रविलस स्वातेशमूर्तिर्भवान् नेहेन्यं पुरुषार्थमात्मनि सदा सङ्क्रीडमानोस्त्वलम् बिभ्राणो नरुणं शरीरमरुणे स्थित्वापि तं भासयम् लोकानां गुरुरप्यगौरवनरैः क्रीडंश्च बालक्रमैः सच्छत्यच्च हि यस्य रूपमपि च प्रच्छेदि दुश्चेतसाम् श्रीलश्रीरमणश्रितामरतरुः कृष्णस्य पुष्णातु नः भट्टश्रीरथविल्वमङ्गलयतिः प्रख्यातभक्ताग्रगौ दृष्ट्वा यादृशरूपमक्षिजनुषः साफल्यमासेदतुः तद्रूपं तव दिव्यदिव्यमनिला धीशप्रभो कृष्ण मे साक्षादक्षिपथं गमिष्यति कदा चित्तं च वर्धिष्यते।